इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झाः भाजपेति दलस्य नेता मोहनचरणमाझी ओडिसायाः नूतन मुख्यमन्त्री भविता राज्ये भाजपेति दलस्य विधायकदलेन सर्वसम्मत्या श्रीमाझीं नेतारं विचितम् अत्रावसरे केन्द्रीयमन्त्री राजनाथसिंहः भूपेन्द्रयादवः च केन्द्रीयपर्यवेक्षकरूपेण उपस्थितौ आस्ताम् अवधेयमस्ति यत् मोहनचरणमाझी पूर्वं चतुर्वारं ओडिसायाः कियोनझारस्य विधायकः आसीत् चतुर्वारं विधायकत्वेन भूत्वा सः राज्यस्य शासनव्यवस्थां सुष्ठु विजानाति अत्रावधौ भाजपेति दलेन निर्णयः विहितः यत् ओडिसायाः उपमुख्यमन्त्री द्वयं भविष्यति तौ च कनकवर्धनसिंहः पार्वतीपरिदा च तेलुगुदेशमदलस्य प्रमुखः चन्द्रबाबू नायडूः अद्य प्रातः 27:11 केसारापल्ली आईटी क्रीडांगणे आन्ध्रप्रदेशस्य मुख्यमन्त्रित्वेन शपथं गृह्णीयात् समारोहेऽस्मिन् प्रधानमन्त्री मोदी समेत्य नैके गणमान्यजनाः भागं गृह्णन्ति लेफ्टिनेंट जनरल उपेन्द्र द्विवेदी अग्रिमः सेनाप्रमुखत्वेन नियुक्तः सः अस्य मासस्य 30 दिनांकात् आरभ्य कार्यभारं स्वीकुर्यात् ऋतुविज्ञानविभागेन आगामि 3-4 दिवसेषु उत्तरप्रदेश हरियाणा दिल्लीं च समेत्य पूर्व उत्तर पश्चिम भारतस्य कतिपय भागेषु प्रबलातपस्य ऑरेंज अलर्ट इति संचेतना प्रसारिता आकाशवाण्या सह संवादे ऋतुविज्ञानविभागस्य वरिष्ठ वैज्ञानिकः डॉ आरके जेणामनिः अवोचत् यत् प्रबलोष्णता पुनः आरब्धा मुख्यरूपेण उत्तरप्रदेशे दिल्ल्यां च प्रवृत्ता भविष्यति अमुनोक्तं यत् तापमानं 43-45 मितं यावत् भवितुं सम्भाव्यते दक्षिणपश्चिम प्रावृट् विषये डॉ जेनामणिः अवोचत् यत् प्रवृट् गुजरात कोंकण क्षेत्रे महाराष्ट्रस्य च कतिपय भागेषु सम्प्राप्ता यया केरल कर्णाटक कोंकण क्षेत्राणां तटवर्ती भागेषु प्रबलवृष्टेः संभावना अस्ति जम्मूकश्मीरस्य कठुआ जनपदे गतदिने सुरक्षाबलैः एकः आतंकवादी मारितः कठुआ नगरस्य हीरानगर क्षेत्रे आतंकवादी सुरक्षाबलयोः मध्ये संजातः भुशुण्डिका युद्धः इति आरक्षकैः प्रोक्तम् एकः जनः व्रणितः इति सूचना प्राप्ता अपि च अवधेयं यत् अद्यापि तौ द्वौ आतंकवादिनौ तस्मिन् क्षेत्रे स्तः जम्मूकश्मीरे रियासी आरक्षकैः 20,00,000 रूप्यकाणां पुरस्कारस्य घोषणा विहिता यः कोऽपि रियासी मण्डलस्य पौनी क्षेत्रे बसयान आक्रमण सम्बद्ध आतंकवादिनां विषये कापि सूचना दास्यति तस्मै पुरस्कार राशिः प्रदास्यते दोहायां गतदिने 25,000,000 वर्षस्य फीफा विश्व चषक स्पर्धा पत्रतायै निर्णायक द्वन्द्वस्य द्वितीये चक्रे एशियाई दलम् 1-2 इति अंकांतरालेन भारतीय पादकन्दुक दलं पराजितम् इति वार्ताः